एष रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति आर्थिक सहयोगस्य क्षेत्रीय एकीकरणस्य च विषययोः संयुक्त प्रगतेर भावनायां च नेपालः प्रतिवेशी देशाभ्याम् अन्य राष्ट्रैश्च सह समन्वयस्य कार्यं प्रगाढीकर्तुं प्रतिबद्धोऽस्ति। भूपरिवेष्टित विकासशील राष्ट्राणाम् तृतीय संयुक्त राष्ट्र संघीय सम्मेलनस्य क्रमे ह्य आयोजितम् भूपरिवेष्टित राष्ट्राणाम् स्थिर पूर्वाधार सम्पर्क सञ्जालस्य सबलीकरणम् अवरोधरहिता पारवहन प्रणाली चेति विषयकम् उच्चस्तरीय विषयगत वृत्ताकार मञ्चम् सम्बोधयन् प्रधानमन्त्री ओली एवं प्रतिबद्धताम् व्यक्तवान्। प्रधानमन्त्री ओली समृद्धो नेपाल सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षां पूरयितुं नेपालेन सबल दूतार्थिक वृद्धये पूर्वाधार सबल समन्वयस्य कार्याय निर्वाध पारवहन प्रणाल्यै च प्राथमिकता प्रदत्तास्तीति उदैरयत्। सम्मेलनस्य क्रमे ह्य एव हिमनदीनाम् स्यन्दी भवनात् भूपरिवेष्टित विकासशील राष्ट्रेष् जलवायु परिवर्तनस्य प्रभाव सम्बद्धम् विशेष सत्रम् सम्बोधयन् प्रधानमन्त्री ओली हिमनदीनाम् स्यन्दी भवनस्य क्रमम् न्यूनीकर्तुम् सहकार्यम् कृत्वा कार्यकरणाय विश्व समुदायम् अन्वरुणत्। प्रधानमन्त्री ओली हिमालयानाम् रक्षायै सहकार्येण कार्यम् कर्तुम् नेतृत्वम् विधातुम् समन्वयम् कर्तुम् च नेपालः तत्परोऽस्तीति उदैरयत्। तदवसरे प्रधानमन्त्री ओली पृथिव्याः स्तम्भस्य रूपेण विद्यमानानाम् हिमालयानाम् संरक्षणार्थम् नेपालस्य आकांक्षायाः अपेक्षयापि कार्बनवायोः उत्सर्जकैः राष्ट्रैः गभीरैर्भाव्यम् इत्यत्र बलम् दत्तवान्। प्रतिनिधि सभान्तर्गतायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितौ शिक्षकाणाम् पदोन्नतेः विषये सहमतिः सम्भूतास्ति। शिक्षा समितेः ह्यस्तनोपवेशेन शिक्षकाणाम् आन्तर प्रतियोगितायाः माध्यमेन ज्येष्ठतायाः कार्यसम्पादन मूल्यांकनयोः कार्यक्षमतायाश्च मूल्यांकनेन पदोन्नतेः प्रस्तावः पारितीकृतोऽस्ति। समितितः शिक्षकाणाम् कार्यसम्पादन मूल्यांकनम् सामान्यतः प्रतिशतम् 90 अंकेभ्यः प्रतिशतम् 80 अंकानाम् निर्धारणस्य प्रस्तावः पारितीकृतोऽस्ति। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्तः विधेयक निर्माणे देशस्य वस्तुस्थितौ ध्यानम् देयमिति उदैरयत्। महिला सामाजिक विषय समिते ह्य उपविष्टे उपवेशे महिला बाल बालिका ज्येष्ठ नागरिक मन्त्रालयाय प्रदत्तानाम् निर्देशनानाम् क्रियान्वयनस्य अवस्थाया विषये विमृष्टमस्ति। उपवेशे मन्त्रालयस्य सचिवः लक्ष्मी कुमारी बस्नेत महिलानाम् किशोरीणाम् च सुरक्षायाः आत्मनिर्भरतायाः सशक्तिकरणस्य च सुदृढीकरणाय मन्त्रालयेन समितेः शीड नाम्न्याः संस्थायाश्च परामर्शस्य अनुसारेण नीति निर्माणस्य प्रक्रिया अग्रेसारितास्तीति अगदत्। उपवेशे सांसदाः दुर्गम जनपदानाम् कुपोषणग्रस्तानाम् जनपदानाम् च बालबालिकाभ्यः गुणस्तरीयस्य खाद्यान्नस्य पोषणस्य च प्रदान प्रतिनिधि सभायाः कृषि सहकारी प्राकृतिक स्रोत समितेः उपवेशे सार्वजनिक संस्थाभिः निर्धारित सीमातः अधिकायाः भूमेः स्थापनेन पूर्ववर्ती अनुमति ग्रहणस्य प्रावधानम् पूर्ववत् स्थापयितुम् सहमतिः धृतास्ति। समितेः ह्यस्तनोपवेशे सांसदैः भूमि सम्बद्धस्य प्रचलितस्य अधिनियमस्य अनुसारेण सीमातः अधिकायाः भूमेः स्थापनात् पूर्वम् कयापि सार्वजनिक संस्थया उद्योगेन प्रतिष्ठानेन शैक्षिक संस्थया आयोजनया संस्थाभिश्च वा भूमेः उपयोग सम्बद्धम् विस्तृत परियोजना प्रतिवेदनम् वातावरण सम्बद्धम् प्रतिवेदनम् च निर्माय सम्बद्धात् निकायात् स्वीकृति ग्रहणस्य प्रावधानस्य पूर्ववत् स्थापनस्य दृढतायाः व्यक्तेः अनन्तरम् सर्वकारः एतत् प्रावधानम् पूर्ववत् स्थापयितुम् सहमतोऽस्ति। कार्यवाहक प्रधानमन्त्री नगरीय विकास मन्त्री च प्रकाशमान सिंह भासते चुरे क्षेत्रस्य संरक्षणाय जलवायु परिवर्तनस्य प्रभावम् न्यूनीकर्तुम् च स्तरत्रयस्यैव सर्वकारेषु स्थानीय स्तरे च सहकार्यस्य आवश्यकता वर्तते। सिराहा जनपदस्य लाहन स्थाने ह्य आयोजिते कार्यक्रमे कार्यवाहक प्रधानमन्त्री च सिंह चुरे क्षेत्रस्य दीर्घकालिक संरक्षणेन मधेश क्षेत्रे दृष्टा वातावरणीय समस्या च समाधास्यते इति उदयरयत। मन्त्री सिंह कस्याः अपि योजनायाः यथासमयं सम्पादनाय स्वस्वक्षेत्रेभ्यः प्रवर्तनीयं, सर्वकारेण अत्र सहयोगः सदैव विधास्यते इति च प्रावोचत। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ नेपाल जापान देशयोः मध्ये विद्यमानं प्राविधिक समन्वयं सहजीकर्तुं प्रतिबद्धतां व्यनक्ति। नेपाल जापान देशयोः प्राविधिक समन्वयस्य कार्यं सहजीकर्तुम् आयोजितम् एतत्ख्रीष्टवर्षीयं जापान नेपाल प्राविधिक मञ्चं पूर्वेद्युः काष्ठमण्डपे सम्बोधयन् मन्त्री गुरूङ नेपाल सर्वकारेण संचार मन्त्रालयस्य माध्यमेन वैद्युत प्राविधिक क्षेत्रे पारस्परिकं सहकार्यं प्रवर्धयितुं जापान सर्वकारेण सह रणनीतिक सहकार्यस्य कार्याय सक्रिय रूपेण प्राथमिकता प्रदीयमानास्तीति अभासत। तदवसरे मन्त्री गुरूङ राष्ट्रिय प्राविधिक वैयुतांकन दृष्टिकोणं सफलीकर्तुं जापान सर्वकारस्य प्राविधिकं वित्तीयं च सहकार्यं महत्वपूर्णं शीर्ष्यतीति भाषमाण नेपालेन स्वस्यैव उपग्रहस्य प्रक्षेपणं विधातुं जापान सर्वकारस्य प्राविधिक सहयोग अपेक्षमाणोऽस्तीति असूचयत। इति समाचाराः।